त्रिपुरांतकारी भानु शशि भूमि सुतो बुधश्च गुरुश्च शुक्रः शनि राहु केतवः कुर्वन्तु सर्वे मम सुप्रभातम् भृगुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः रैभ्यो मरीचिश्च वनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम् सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च सप्तस्वराः सप्तरसातलानि कुर्वन्तु सर्वे मम सुप्रभातम् सप्तार्णवाः सप्तकुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त भूरादि कृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् गन्धा सरसास्तथापः स्पर्शी च वायुर्ज्वलनः स तेजाः नभः स शब्दं महता स हैते कुर्वन्तु सर्वे मम सुप्रभातम् प्रभाते परमं पवित्रं पठेत् स्मरेद्वा शृणुयाच्च तद्वत् दुःस्वप्ननाशस्त्विह सुप्रभातम् भवेच्च नित्यं भगवत्प्रसादात् वैन्यं पृथुं हैहयमर्जुनं च शाकुन्तलेयं भरतं नलं च रामं च यो वै स्मरति प्रभाते तस्यार्थलाभो विजयश्च हस्ते बलिर्विभीषणो भीष्म प्रह्लादो नारदो ध्रुवः जडेते वैष्णवा प्रोक्ता स्मरणं पापनाशनं अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषण कृपः परशुरामश्च सप्तैते चिरजीविनः सप्तैतान् स्मरे नित्यं मार्कण्डेयमथाष्टमं जीवेत् वर्षशतं साग्रं अपमृत्युविवर्जिता
Mama su prabhatam kurvantu sarve